ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। श्री शुक उवाच, भगवानपि तत्रैव बलदेवेन संयुतः अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान्। तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः प्रश्रयावनतो पृच्छत् वृद्धानन्दपुरोगमान्, कथ्यतां मे पितः कोऽयं सम्भ्रमो वा उपागतः, किं फलं कस्य चोद्देशः, केन वा साध्यते मखः। एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः, न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह। अस्य स्वपरदृष्टीनामित्रोदास्तविद्विषाम्, उदासीनोरिवद्वर्ज्य आत्मवत्सुहृदुच्यते। ज्ञात्वा ज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति, विदुषः कर्मसिद्धिः स्यात् तथा न विदुषो भवेत्। तत्र तावत् क्रियायोगो भवतां किं विचारितः, अथवा लौकिकस्तन्मे पृच्छतः साधु भण्यताम्। नन्द उवाच, पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः, तेऽभि वर्षन्ति भूतानां प्रीणनं जीवनं पयः। तं तात वयमन्ये च वार्मुचां पतिमीश्वरं, द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः। तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे, पुंसां पुरुषकाराणां पर्जन्यः फलभावनः। य एवं विसृजेद्धर्मं पारम्पर्यागतं नरः, कामाल्लोभाद्भयाद्वेषात् स वै नाप्नोति शोभनम्। श्रीशुक उवाच, वचो निशम्य नन्दस्य तथान्येषां रजौकसाम्, इन्द्राय मन्युं जनयन् पितरं प्राह केशवः। श्रीभगवानुवाच, कर्मणा जायते जन्तुः कर्मणैव विलीयते, सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते। अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणां, कर्तारं भजते सोऽपि नय्य कर्तुः प्रभुर्हि सः। किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम्, अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम्। स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते, स्वभावस्थमिदं सर्वं सदेवासुरमानुषम्। देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा, शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः। तस्मात् सम्पूजयेत् कर्म स्वभावस्थः स्वकर्म कृत्, अञ्जसा येन वर्तेत तदेवास्य हि दैवतम्। आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति, न तस्माद्विन्दते क्षेमं जारं नार्यसति यथा। वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः, वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया। कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते, वार्ता चतुर्विधा तत्र वयं गोवृत्तयो निशम्। सत्त्वं रजस्तम इति स्थित्युत्पद्यन्त हेतवः, रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत्। रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः, प्रजास्तैरेव सिद्ध्यन्ति, महेन्द्रः किं करिष्यति। ननः पुरो जनपदा न ग्रामा न गृहा वयम्, नित्यं वनौकसस्तात वनशैलनिवासिनः। तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः, य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः। पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः, संयावापूपशस्कुल्यः सर्वदोहश्च गृह्यताम्। हूयन्तामग्नयः सम्यक् ब्राह्मणैर्ब्रह्मवादिभिः, अन्नं बहुविधं तेभ्यो देयं वो धेनु दक्षिणाः। अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः, यवसं च गवां दत्त्वा गिरये दीयतां बलिः। स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः, प्रदक्षिणं च कुरुत गोविप्रानलपर्वतान्। एतन्मम मतं तात क्रियतां यदि रोचते, अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः। श्रीशुक उवाच, कालात्मना भगवता शक्रदर्पं जिघांसता, प्रोक्तं निशम्य नन्दाद्याः साद्वगृह्णन्त तद्वचः। तथा च व्यदतुः सर्वं यथाह मधुसूदनः, वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान्। उपहृत्य बलीन् सर्वानादृता यवसं गवां, गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्। अनांस्यनरुद्युक्तानि ते चारुह्यस्वलङ्कृताः गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः कृष्णस्त्वन्यतमम् रूपम् गोपविश्रम्भणम् गतः शैलोऽस्मीति ब्रुवन् भूरि बलिमादद्बृहद्वपुः तस्मै नमो व्रजजनैः सह चक्रेत्मनात्मने अहो पश्यत शैलोऽसौ रूपिणोऽनुग्रहम् व्यधात् एषो वजानतो मर्त्यान् कामरूपी वनौकसः हन्ति यस्मै नमस्यामः शर्मणे आत्मनो गवाम् इत्यद्रिगो द्विजमखम् वासुदेव प्रणोदिताः यथा विधायते गोपाः सह कृष्णा व्रजम् ययुः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।